इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे। अथ वार्ताः। बिहारस्य प्रथमचरणस्य विधानसभानिर्वाचनार्थं मतदानम् अद्य भविष्यति। अस्मिन् चरणे अष्टादश मण्डलेषु एकविंशत्युत्तर एकशतं निर्वाचनक्षेत्रेषु मतदानं भविष्यति। तेषु क्षेत्रेषु पटना, वैशाली, नालन्दा, भोजपुर, मुंगेर, सारण, सिवान, बेगुसराय, लखीसराय, गोपालगंज, मुजफ्फरपुर, दरभंगा, मधेपुरा, सहरसा च वर्तन्ते। मतदानं प्रातः सप्तवादने आरभ्य सायं षड्वादनपर्यन्तं भविष्यति, परन्तु सुरक्षाकारणात् सिमरी, भक्तियारपुर, महिषी, तारापुर, मुंगेर, जलालपुर तथा सूर्यगढ़ विधानसभा खण्डानां 56 मतदानकेन्द्रेषु मतदानस्य समाप्तिः सायं 5 वादने भविष्यति। स्वतन्त्रं, निष्पक्षं, शान्तिपूर्णञ्च मतदानं सुनिश्चेतुं विस्तृत सुरक्षाव्यवस्था कृता वर्तते। मतदानप्रक्रियायाः निरीक्षणार्थं अत्याधुनिकं कमाण्ड एण्ड कंट्रोल इति केन्द्रं स्थापितं वर्तते, यत्र सर्वेभ्यः 141,000-345,000 मतदानकेन्द्रेभ्यः वेबकास्टिंग इति दृश्यप्रसारणं भविति। राज्य सशस्त्र आरक्षिबलेन सहितं केन्द्रीय सशस्त्र आरक्षिबलान्यपि सर्वेषु मतदानकेन्द्रेषु नियोजितानि वर्तन्ते। महिला सशक्तिकरणस्य प्रवर्धनार्थं 26,900 सर्वमहिला प्रबन्धितानि केन्द्राणि दिव्यांगजन कर्मचारिभिः प्रबन्धिताः 70 केन्द्राणि च स्थापितानि वर्तन्ते। तदतिरिक्तं मतदातॄणां कृते वर्धितसुविधाभिः सह 20-300 आदर्शकेन्द्राणि स्थापितानि सन्ति। पटनानगरस्य मुख्यनिर्वाचनपदाधिकारिणः कार्यालये विशेषनियन्त्रणकक्षः स्थापितः अस्ति। मतदातारः आरोपपञ्जीकरणार्थं दूरभाषासंख्या 0612-282-4001 अथवा ईमेल ceo_bihar@eci.gov.in तथा ceobihar@gmail.com इति च सम्पर्कयितुं शक्नुवन्ति। अपरत्र राज्ये द्वितीयचरणस्य निर्वाचनस्य कृते प्रचारः पूर्णतया प्रचलति। एनडीए अथा महागठबन्धनस्य ताराप्रचारकाः, वरिष्ठनेतारः च अस्मिन् चरणे निर्वाचनक्षेत्रेषु सीमाञ्चल, चम्पारण, मगध क्षेत्रेषु च निर्वाचनसभायाः सम्बोधनं कृतवन्तः। पूर्वचम्पारण पश्चिमचम्पारणक्षेत्रयोः भाजपा राष्ट्रिय अध्यक्षः जेपी नड्डा सभायाः सम्बोधनं कृतवान्, यत्र हि संयुक्त जनता दलस्य अध्यक्षः एवं मुख्यमन्त्री नीतीशकुमारः अररिया, कटिहार, किशनगंज क्षेत्रेषु जनसभानां सम्बोधनं कृतवान्। महागठबन्धनतः कांग्रेसनेत्री प्रियंका गांधी वाल्मीकिनगरे, चनपतिया इत्यत्र च प्रचारं कृतवती। प्रधानमन्त्री श्रीनरेन्द्रमोदी श्वः नवदिल्ल्यां वन्दे मातरम् इति राष्ट्रियगीतस्य सार्धैकशतवर्षाणाम् अवसरे वर्षव्यापि स्मरणकार्यक्रमस्य उद्घाटनं करिष्यति। संस्कृतिमन्त्रालयेन अस्य राष्ट्रगीतस्य सार्धैकशततमस्य स्मरणकार्यक्रमस्य उद्घाटनसमारोहस्य आयोजनं भविष्यति। अनेन सह श्वः आरभ्य आगामिवर्षस्य नवम्बर मासस्य 7 दिनांकपर्यन्तम् आवर्षं राष्ट्रव्यापि स्मरणस्य औपचारिक प्रारम्भः भविष्यति। उद्घाटनसमारोहस्य प्रमुखविशेषतासु वन्दे मातरम् इत्यस्य सार्धैकशतवर्षाणाम् इतिहासस्य प्रदर्शिनी भविष्यति। लघुवृत्तचित्रस्य प्रदर्शनं, स्मारकमुद्रायाः, डाकमुद्रायाः च विमोचनञ्च भविष्यति। पुरुषक्रिकेटक्रीडायां भारत आस्ट्रेलिया दलयोः मध्ये पञ्चक्रीडाश्रृङ्खलायाः 24-20 अन्ताराष्ट्रिय द्वन्द्वः अद्य आस्ट्रेलिया देशस्य क्वीन्सलैण्ड नगरस्य कैरारा ओवल क्रीडाङ्गणे भविष्यति। भारतीय समयानुसारं अपराह्णे 12:00 इयं क्रीडास्पर्धा आरभ्यते इति वार्ताः।